अथ श्रीरामरक्षास्तोत्रम्। अत से पुष्पसङ्काशं पीतवाससमच्युतं ध्यात्वा वै पुण्डरीकाक्षं श्रीरामं विष्णुमव्ययम्। पातु वो हृदयं रामः श्रीकण्ठः कण्ठमेव च, नाभिं पातु मुखत्राता कटिं मे विश्वरक्षकः। करौ दाशरथिः पातु पादौ मे विश्वरूपधृक्। चक्षुषी पातु वै देवः सीतापतिरनुत्तमः। शिखां मे पातु विश्वात्मा, कर्णौ मे पातु कामदः। पार्श्वयोस्तु सुरत्राता कालकोटिदुरासदः। अनन्तः सर्वदा पातु शरीरं विश्वनायकः। जिह्वां मे पातु पापघ्नो लोकशिक्षाप्रवर्तकः। राघवः पातु मे दन्तान्, केशान् रक्षतु केशवः। सक्थिनी पातु मे दत्तविजयो नाम विश्वसृक्। एतां रामबलोपेतां रक्षां यो वै पुमान् पठेत्, सचिरायुः सुखी विद्वान् लभते दिव्यसम्पदम्। रक्षां करोति भूतेभ्यः सदा रक्षातु वैष्णवी। रामेति रामभद्रेति रामचन्द्रेति यस्मरेत्। विमुक्तः स नरः पापान्, मुक्तिं प्राप्नोति शाश्वतीम्। वसिष्ठेन इदं प्रोक्तं गुरवे विष्णुरूपिणे। ततो मे ब्रह्मणः प्राप्तं मयोक्तं नारदं प्रति। नारदेन तु भूलोके प्रापितं सुजनेष्विह। सुप्त्वा वाथ गृहे वापि मार्गे गच्छति एव वा। ये पठन्ति नरश्रेष्ठास्ते ज्ञेयाः पुण्यभागिनः। इति श्रीपद्मपुराणोक्तं श्रीरामरक्षास्तोत्रम्।